एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रपतिना रामचन्द्र पौडेलेन शिवमासस्य सप्तदश दिवसाय आहूतम् संघीय संसदः द्वयोः सदनयोः अधिवेशनम् तत्कालस्य कृते स्थगितकृतम् वर्तते। गत बुधवासरे उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य परामर्शेन राष्ट्रपतिना अस्यैव वैशाखमासस्य आगामिनः सप्तदश दिवसस्य कृते आहूतम् अधिवेशनम् ह्य उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य परामर्शेन विशेषकारणम् प्रदर्श्य तत्कालस्य कृते स्थगितकृतम् अस्तीति राष्ट्रपति कार्यालयस्य प्रवक्त्रा रितेश साक्येन प्रकाशितायाम् विज्ञप्तौ उल्लिखितम् वर्तते। राष्ट्रपतिना पौडेलेन वैशाख मासस्य गत नवमे दिवसे नेपालस्य संविधानस्य अनुसारेण अस्यैव वैशाख मासस्य सप्तदश दिवसाय संघीय संसदः अधिवेशनम् आहूतम् आसीत्। सर्वकारेण काष्ठमण्डपस्य महाराजगंजवर्तिनः राष्ट्रिय प्रशिक्षण प्रतिष्ठानस्य नामनि विद्यमानायाः चतुर्दशोत्तरैकशत रोपनि परिमिताया भूमेः राष्ट्रपति कार्यालयस्य नामनि स्थानान्तरणं न कर्तुं निर्णीतं वर्तते। मन्त्रिपरिषदा ह्य उपविष्टेन उपवेशेन पञ्चसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षस्य भाद्रमासस्य प्रथम दिवसे तात्कालिक्या मन्त्रिपरिषदा विहितं राष्ट्रपति कार्यालयाय भूमि प्रदान सम्बद्धं निर्णयं निरस्तीकृत्य पुनः पूर्ववत राष्ट्रिय प्रहरी प्रशिक्षण प्रतिष्ठानस्य अधीने एव भूमि मानेतुं निर्णीतमस्तीति सर्वकारस्य प्रवक्ता शिक्षा विज्ञान प्रविधि मन्त्री सस्मित पोखरेलः असूचयत। मन्त्रिपरिषदः उपवेशेन सर्वकारीय निकायेषु विद्यमाने सूचना प्रविधि सम्बद्धे विषये अध्ययनं विधातुं सूचना संचार प्रविधि परामर्शदातुः संयोजकत्वे अध्ययन कार्यदलं संघटितम् अस्तीति च सर्वकारस्य प्रवक्ता मन्त्री पोखरेलः असूचयत। तथैव मन्त्रिपरिषदः उपवेशेन जलसम्बद्धानां परियोजनानां कृते एशियाली विकास कोषात् प्राप्यमाणां पञ्चदशोत्तरैकशत मिलियन डलर मुद्राम् सौविध्यपूर्णेन ऋणत्वेन ग्रहीतुं सहायता सम्बद्धायाः वित्तीय संविधायाः अन्तिमं स्वरूपं निर्मातुं च अर्थमन्त्रालयस्य सहसचिवस्य नेतृत्वे वार्तासमूह संघटितोऽस्तीति च मन्त्री पोखरेलः असूचयत। हिमालयीय क्षेत्रात् प्रतिनिधित्वं कुर्वद्भिः सांसदैः हिमालयीय क्षेत्रे शैक्षिक सत्रस्य समयस्य परिवर्तनाय सर्वकारस्य समक्षम् अभियाचितं वर्तते। शिक्षा विज्ञान प्रविधि मन्त्रिणं सस्मित पोखरेलं पूर्वेद्युः मिलित्वा सांसदैः हिमालयीय जनपदेषु मार्गशीर्ष मासात् फाल्गुन मासं यावत् अत्यधिक हिमपातस्य कारणेन विद्यालयानां सञ्चालने विद्यार्थिनां नियमित रूपेण उपस्थितौ समग्र शैक्षिक कार्यतालिकायां च प्रत्यक्षं प्रभावसर्जनम् भवतीति हेतोः शैक्षिक सत्रस्य समयस्य जलवायोः अनुकूलरूपेण व्यवस्थापनं विधातुं याचना विहिता अस्ति। सैव सांसदैः हिमालयीय क्षेत्रे विद्यार्थिनां पठन पाठनयोः शैक्षिक पूर्वाधार निर्माणे स्रोतसाधनानां व्यवस्थापने च व्यावहारिकं काठिन्यं जायमानमस्तीत्यतः तत्र आवश्यक सहजीकरणं विधातुं शिक्षामन्त्री अनुरुद्धः आसीत्। प्रत्युत्तरे शिक्षामन्त्री पोखरेलः हिमालयीय क्षेत्रे विद्यमानानां शैक्षिक समस्यानां समाधानाय सर्वकारेण आवश्यकं सहजीकरणं विधास्यते इति विश्वासम् अदापयत्। तदवधौ मन्त्री पोखरेलः हिमालयीय क्षेत्रे जलवायोः कारणेन विद्यार्थिनां पठन पाठनयोः समस्या निवारणत्वेन शैक्षिक तालिकां निर्मातुं च अन्वरुणत्। रिइन्स्योरेन्स लिमिटेड संस्थानस्य तात्कालिकाध्यक्ष नेपालोद्योग वाणिज्य महासंघस्य पूर्वाध्यक्षश्च शेखर गोल्छा प्रहरिणा ह्यो निगृहीतो वर्तते। नेपाल प्रहरिणः केन्द्रीयानुसन्धान निकायस्य समूहेन काष्ठमण्डपस्य नागार्जुन नगरपालिकायाः अष्टमवडा क्षेत्र निवासी गोल्छा नक्साल स्थानात् पूर्वेद्युः निगृहीतोऽस्ति। नेपाल प्रहरिणः केन्द्रीयानुसन्धान निकायस्य प्रवक्ता प्रहरी वरिष्ठो परीक्षकश्च शिवकुमार श्रेष्ठ नेपाल न्यासपत्र परिषदः प्रारम्भिकम् अनुसन्धान प्रतिवेदनं चापि आधृत्य गोल्छाविदं निगृह्य अनुसन्धानं प्रारब्धमस्तीति असूचयत्। राष्ट्रिय सभायाः अन्तर्गतायाः संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितेः ह्यस्तनोपवेशे सांसदैः सांजालिक सुरक्षां सुदृढां विधातुं वैदेशिक सामाजिक सञ्जालानां नियमन सम्बद्धायाः नीति निर्माण प्रक्रियायाः अग्रेवर्धनम् आवश्यकम् अस्तीति बलं दत्तं वर्तते। साञ्जालिकापराध नियन्त्रण विपद संकट न्यूनीकरण प्रतिकार्य व्यवस्थायाः विषये समितेः ह्यस्तनोपवेशे सम्भूते विमर्शने सांसदैः अपंजीकृतानां सामाजिक सञ्जालानां कृत्रिम बौद्धिकता सम्बद्धं प्रविधिं च दुरुपयुज्य जायमानं अपराधं निरोद्धुं सामाजिक सञ्जालानां पंजीकरण प्रक्रिया सम्बद्धः नीति यथाशीघ्रम् अग्रे वर्धयितुं बलं प्रदत्तं वर्तते। एवमेव सांसदैः विपदः व्यवस्थापनाय जनशक्तेः स्रोत साधनानां विधिगत संरचनायाः प्राविधिक सामर्थ्यस्य च सर्वेषां पक्षाणां सुदृढीकरणं कृत्वा प्रभावकारिणी कार्ययोजना निर्मातव्येति च बलं प्रदत्तं वर्तते। उपवेशे प्रहरी महानिरीक्षक दानबहादुर कार्की फेसबुक इन्स्टाग्राम प्रवृत्तिनां वैदेशिक सामाजिक सञ्जालानां नूतन जटिल प्राकृतिक प्रविधेः कारणेन साञ्जालिकापराधस्य विरूद्धे प्रमाणानां संकलने समाह्वय दृष्टोस्तीति असूचयत्। विमर्शने राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य कार्यकारी प्रमुख दिनेश प्रसाद भट्ट गृहमन्त्रालयस्य सचिव राजकुमार श्रेष्ठश्च विचारं व्यक्तवन्तौ। काष्ठमण्डपोपत्यकायां वायोः प्रदूषणस्य स्तरः वर्धमानोऽस्ति। जलवर्षणेन सैव सुधारस्य क्रमे दृष्टः वायोः गुणस्तरः सहसा पुनः अस्वस्थकरः सम्प्राप्तोऽस्ति। वायो गुणस्तर मापन निकायस्य अनुसारेण ह्य वायो गुणस्तरस्य सूचकांकाः 47.2% प्राप्ताः सन्ति। अत्रान्तरे वायोः प्रदूषणस्य कारणेन विशेषतः बालबालिकासु ज्येष्ठ नागरिकेषु च श्वास प्रश्वासयोः समस्या सम्भवतीति ज्ञापितं वर्तते। वातावरण विभागेन अत्यावश्यक कार्येण विना बहिः न निष्क्रान्तुं मुखपट्टिकाम् अनिवार्यतः धारयितुं धूम्रधूलिकातः आत्मानं रक्षितुं च सर्वे अनुरुद्धाः वर्तन्ते। संचार सूचना प्रविधि मन्त्री डाक्टर विक्रम तिमल सिन्हा सर्वकारः संचाराभिव्यक्ति स्वतन्त्रतायाः संरक्षणाय प्रवर्धनाय च प्रतिबद्धोऽस्तीति निगदति। ह्य नेपाल पत्रकार महासंघस्य पदाधिकारीभिः सह मन्त्रालय विहिते मेलने संचार मन्त्री डाक्टर तिमल सिन्हा पश्चात्तन समये सामाजिक सञ्जालानां कतिपय संचार माध्यमानां च माध्यमेन मिथ्या भ्रामक पक्षपातपूर्ण दायित्वविहीन सामग्रीणां विधीयमानस्य प्रसारणस्य क्रमस्य वर्धनं प्रति चिन्तां व्यक्तवान् इति समाचाराः।